ऋषिरुवाच पुरा शुंभ निशुंभभ्याम शूरभ्यां शचीपतेः त्रैलक्यं जग्रभागश्च धीतामोदबलश्रयात् तावेव शूर्यतां तद्वदधिकारं तथैलवं पौवीरमथजम्यं च चक्राते वरुणस्य च तदेव पवनर्धिं च चक्रतुर्बह्निकर्म च ततदेवाभिनिर्धूता भ्रष्टराज्याः पराजिताः हिताधिकारस्त्रिदशस्तभ्यां सर्वे निराकृताः महाशूराभ्यां तान् देवीं संस्मरन्त्यपराजितम् तया समाकनवरो दत्तो यथापत्सु स्मृताखिलाः भवतां नाशयिष्यामि तत्क्षणात् परमापदः इति कृत्वा मतिं देवा हीमवन्तं नगेश्वरं जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतिष्ठुः देवाऊचुः नमो देव्यै महादेव्यै शिवायै सततं नमः नमः प्रदित्यै भद्रायै नियतः प्रणतास्मतां रौद्रायै नमो नित्यायै गौर्यै धत्र्यै नमो नमः जस्नायै चेन्द्ररूपिण्यै सुखायै सततं नमः कल्याण्यै प्रणतावृद्ध्यै सिद्ध्यै कुर्मो नमो नमः नैरित्यै भूभृदां लक्ष्मै सर्वाण्यै ते नमो नमः दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः अतिसौम्यातिरौद्रायै नदास्तस्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु चेतनेत्यभिधीयते नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु सुधारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु छायारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शांति रूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु कांति रूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु लक्ष्मी रूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु दयारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः। चितिरूपेण या कृष्णम् एतद्व्याप्यस्थिता जगत् नमस्तस्यै 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 नमो नमः। स्तुतासूरैः पूर्वमभीष्टसंश्रयात् तथा सूरेन्द्रेण दीनेषु सेविता करतु शानः शुभो हेतुरीश्वरी शुभानि भद्राणि अभिहन्तु चापदः। या सम्प्रतं चद्धत दैत्यतापीतैरस्माभिरीशा च शूरैर्नमस्यते। या च स्मृता तत्क्षणमिव हन्तीनः सर्वापदभक्ति दीनम्रमूर्तिभिः। ऋषिरुवाच एवं स्तवादियुक्तानां देवानां तत्र पार्वती स्नातुमभ्याजयौतो ये जह्नव्या नृपनन्दना साब्रवित्तां सुरान् शुभ्रुर्भवद्भिः स्तीयतित्रका शरीरकोशतश्चर्ष्याः समुद्भूताव्रविच्छीवा स्तत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतै देवै समेतै समरे निशुम्भेन पराजितै शरीरकोशाद्यत्तस्या पार्वत्या निःश्रीतम्बिका कौशिकीति समस्तेषु ततलोकेषु गीयते। तस्यां विनिर्गतायां तु कृष्णाभूत् सापि पार्वती कालिकेति समाख्याता हिमाचलकृताश्रया ततम्बिकां परं रूपं बिभ्राणं सुमनोहरं ददार्श चण्डमुण्डश्च भित्तौ शुम्भनी शुम्भयो तभ्यां शुम्भाय चख्याता अतीव सुमनोहरा कव्यास्ते स्त्री महाराज भाषयन्ती हिमाचलं नैव तादृक्कचिद्रूपं दृष्टं केनोचिदुत्तमं जयतां कव्यशौ देवी गृह्यतं चाशुरेश्वर स्त्री श्रीरत्नमलिचर्वङ्गी द्योतयन्ती दिशास्तिषा सा तु तिष्ठति दैत्येन्द्र तान् भवान् द्रष्टुमर्हति जानी रत्नानि मणयो गजस्वादीनि वै प्रभो त्रैलक्ये तु समस्तानि सम्प्रतान्नभान्ति ते गृहे ऐरावतः समानीतु गजरत्नं पुरन्दरात् परिजाततरुश्चायं तथैव चैश्रवाहयः विमानं हंससंयुक्तम् एतत् तिष्ठति तेऽङ्गने रत्नभूतमिहानीतं यदाशीर्दीधसद्भुतं निधीरेश महापद्मः समानीतधनेश्वरात् किञ्जालकीनिङ्गदौचब्धिर्मालामम्लानपङ्कजं छत्रन्ते वारुणङ्गेः कञ्चनस्रवितिष्ठति तथायं श्यन्दनोभरु यः पुराशीत् प्रजापति मृत्तरूतिक्रन्तिदा नाम शक्तिरीशत्वयाधीता पाशः सलिलरज्जस्य भ्रातुस्तव परिग्रहे निशुम्भस्याब्धिजाताश्च समस्तारत्नजातयः बह्नीरपि ददौ तुभ्य मग्निशौचे च वाशसि एवं दैत्येन्द्ररत्नानि समस्तन्याहीतानि ते स्त्रीरत्नमेषा कल्याणी त्वयाकस्मान्न गृह्यते ऋषिरुवाच निशम्येति वचः शुम्भः सतदाचण्डमुण्डयोः प्रेषयामाश सुग्रीवं दूतं दिव्या महाशूरम् इति चेति च वक्तव्या सा गत्वा वचनान् मम यथा चभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु स तत्र गत्वा यत्रास्ते शैलदेशेति शोभने सा देवी तं तदप्राह श्लक्ष्णं मधुरया गिरा दूतौवाच देवी दैत्येश्वरः शुम्भ स्त्रैलक्ये परमेश्वरः दूतोऽहं प्रेषितस्तेन त्वत्स्वकाशमिहागतः अव्याहतज्ञः सर्वासु यः सदा देवयोनिषु निर्जिताखिलदैत्यादिः स यदाह श्रेणुष्वदत् मम त्रैलक्यमखिलं मम देवावशानुगाः जग्रभागानहं सर्वा नूपाश्नामि पृथक् पृथक् त्रैलक्ये वररत्नानि मम वश्याम्यशेषतः तथैव गजरत्नानि हृत्वा देवेन्द्रवाहनं क्षीरोदोमथनद्भूतमश्वरत्नं ममामरै उच्चैश्रवशसङ्गं तत् प्रणीपत्या समर्पितं यानि चन्यानि देवेषु गन्धर्वेषु रजेषु च रत्नभूतानि भूतानि तानि मध्येव शोभने स्त्रीरत्नभूतां त्वां देवि लोकमन्यामहे वयं सातमस्मानुपागच्छ जतरत्नो भुजो वयं मां वाममानुजं वापीनी शुम्भो मुरुविक्रमं भजत्वं चञ्चलापङ्गी रत्नभूताशि वै यतः परमैश्वर्यमतुलं प्राप्स्यसि मत्परिग्रहात् एतद्बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ऋषिरुवाच इत्युक्ता सा तदा देवी गम्भीरान्तस्मिता जगौ दुर्गा भगवती भद्रा ययेदं धार्यते जगत् दिव्युवाच सत्यमुक्तं त्वया नत्र मिथ्या किञ्चित् तयोदितं त्रैलक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः किन्तु अत्र यत् प्रतिज्ञातं मिथ्या तत् क्रियते कथं श्रूयतामल्पबुद्धित्वात् प्रतिज्ञाया क्रीता पुरा जो मां जयति संग्रामे जो मे दर्पं बपूहति जो मे प्रतिबलो लोके समे भर्ता भविष्यति तदा गच्छतु शुम्भोत्र निशुम्भो वा महाशुरः मां जित्वा किञ्चिरेनत्र पाणिं गृह्णातु मे लघु दूत उवाच अवलिप्ताशिमैवं त्वं देवी ब्रूहि ममाग्रतः त्रैलक्येकः पुमांस्तिष्ठे दग्रे शुम्भो निशुम्भयो अन्येषामपि दैत्यानां सर्वे देवा न वैजुधि तिष्ठन्ति सम्मुखे देवी किं पुनः स्त्रीतमेकिका इन्द्रात्याः सकला देवा स्तस्थूर्जेषां न संयुगे शुम्भादीनं कथं तेषां स्त्रीप्रजाश्यसि सम्मुखम् सा त्वं गच्छ मयैव उक्ता पार्श्वं शुम्भनि शुम्भयो एषाकर्षणनिर्भूत गौरवामागमिष्यसि देव्युवाच इवमेतादबली शुम्भो निशुम्भश्चातिनिर्जवान् किं करोमि प्रतिज्ञामि जगनालोचिता पुरा सत्वं गच्छमयोक्तन्ते जगेतत् सर्वमादृतः तदा चक्ष्वाशूरिन्द्राय स च युक्तं करतु यत् इति मार्कण्डीयपुराणे सावर्णीके मन्वन्तरे देवी माहात्म्ये दिव्यादूतसंवादः।